ॐ शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः रक्षतु निर्दयत्रयगुरुः कृष्णं नमस्याम्यहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति सर्वमेतदखिलम् अखिलं हे कृष्ण रक्षस्व इति अस्ति. अस्तु अद्यतन सुभाषितम् एवम् अस्ति. सुलभाः पुरुषाः लोके सततं प्रियवादिनः अप्रियस्य च पत्यस्य वक्ता श्रोता च दुर्लभः. सुलभाः पुरुषाः लोके सततं प्रियवादिनः अप्रियस्य च पत्यस्य वक्ता श्रोता च दुर्लभः. पुनरेकवारं वदामि. सुलभाः पुरुषाः लोके सततं प्रियवादिनः अप्रियस्य च पत्यस्य वक्ता श्रोता च दुर्लभः. सो अत्र एवम् अस्ति. सुलभाः पुरुषाः, सुलभाः इत्युक्ते सज्जनाः अथवा सज्जनाः अथवा साधुजनाः. साधुजनाः इति कं वर्णनं कुर्मः इत्युक्ते ये यस्य चिन्तनम् अपि च वचनं कार्यं समानमस्ति ते एव सुलभाः पुरुषाः इत्युक्ते उत्तमाः जनाः इत्युक्ते सज्जनाः इति. सुलभाः पुरुषाः लोके इत्युक्ते सर्वत्र सततं प्रियवादिनः. सततम् इत्युक्ते सर्वदा इत्युक्ते एकवारम् अहम् असत्यं वदामि इति तादृशं ते न चिन्तयन्ति. अहं सर्वदा सत्यमेव वदामि इति. सर्वदा प्रियवादिनः. प्रियवादिनः इत्युक्ते प्रियवचनं. केवलं प्रियवचनम् इत्युक्ते असत्यवचनं न. वयम् इच्छामः खलु असत्यं वचनं प्रियं वचनम् इति. परन्तु ते तथा न वदन्ति. प्रियवचनं परन्तु मनसि दुःखं न जनयति तादृशप्रियवचनम् श्लोक वेदे अस्ति. जिह्वा मे मधुमत्तम मधुमत्तम इति. जिह्वा मे मधुमत्तम इत्युक्ते जिह्वायां मधु आगच्छति. जिह्वातः मधु आगच्छति इत्युक्ते प्रियवचनम् आगच्छति. परन्तु प्रियवचनम् अस्ति चेत् अपि सत्यवचनमेव. किमर्थं सत्यवचनमेव? किमर्थम् इत्युक्ते ते सुलभाः पुरुषाः. यत् चिन्तयति तत् वदति, यत् वदति तत् तदेव कार्यं करोति इति. अपि च द्वितीयपङ्क्ति अस्ति. अप्रियस्य च पत्यस्य वक्ता श्रोता च दुर्लभः. अप्रियस्य, अप्रियस्य इत्युक्ते यत्र प्रियं न जनयति. अप्रियस्य च पत्यस्य, पत्यस्य इत्युक्ते युक्तस्य इत्युक्ते सन्दर्भानुसारं. सन्दर्भानुसारं वदामः चेत् वक्ता श्रोता च दुर्लभः. दुर्लभः इत्युक्ते अधिकाः न भवन्ति इति अस्ति. वक्ता इत्युक्ते यः वदति, श्रोता इत्युक्ते यः शृणोति. श्रोता वक्ता इति ते अपि दुर्लभः. युक्तस्य, युक्तस्य इत्युक्ते सन्दर्भानुसारं वक्ता, सन्दर्भानुसारं वयं वदामः इति तादृशं न चिन्तयति, तादृशं न चिन्तयति. अप्रियवाक्यमपि वक्तुं न इच्छन्ति ते, केवलं प्रियवाक्यमेव इच्छन्ति इति. केन इच्छन्ति? दुर्लभाः. अस्तु, अत्र किम् अस्ति संस्कृत
भगिनी, दुर्लभः इत्युक्ते किम्?
दुर्लभः इत्युक्ते रेर् इति अर्थे. सर्वत्र न भवति, केचन जनाः एव एवं करोति इति. लोके प्रियवाक्यानि वक्तुं सर्वे अपि उत्सहन्ते एव, तथैव श्रोतुमपि बहुजनाः सज्जाः भवन्ति एव. अप्रियं परन्तु हितकरं, हितकरम् इत्युक्ते सन्दर्भानुसारं यत् सम्यक् भवति, उपयोगकरं, साहाय्यकरं. पथ्यम् इत्युक्ते साहाय्यकरं. पथ्यभोजनम् इत्युक्ते अस्माकं शरीरस्य साहाय्यं करोति, तादृशभोजनं पथ्यभोजनम् इति. परन्तु पथ्यवाक्यमपि तथा एव, हितकरं, साहाय्यकरं. साहाय्यकराणि, साहाय्यकराणि वाक्यानि, तादृशानि वाक्यानि केचन जनाः एव वदन्ति. अप्रियं किन्तु हितकरम् इत्युक्ते किम्? अहं वदामि, भवतः कार्यं समीचीनं नास्ति इति. परन्तु एतत् वाक्यम् अप्रियं, प्रियं न जनयति, दुःखं जनयति. परन्तु हितकरम् अस्ति, साहाय्यं करोति. एतादृशवाक्यानि केचन जनाः एव वदन्ति, तथैव तानि वचनानि श्रोतुमपि केचन जनाः एव इच्छन्ति, उत्सहन्ते. उत्साहं जनयति मनसि, केचन जनानां मनसि एव तादृशं जनयति. एकनिमेषः. हलो,
हलो,
கீழே வந்திருக்காருங்க. ஆமா ஆமா, வாக்கிங்
வந்திருக்காரு.
கேச்சன ஜனாக ஏவ தாதுஷ வாக்கியானி வதந்தி, ஏவமேவ கேச்சன ஜனாக ஏவ ஸ்ரோத்தும் இச்சந்தி. ஏவம் லோகே அப்ரியஸ்ய வக்தஸ்ய வச்சனஸ்ய ஸ்ரோதா வக்தா द्वौ अपि दुर्लभाः इति सुभाषितस्य तात्पर्यम्.
Does it mean the person who says something that is useful even if it is not pleasant, and the person who is able to hear it are both rare? Is that what it means?
Are both rare.
धन्यवादः भगिनि.
अप्रियवाक्यं वक्तुं न इच्छन्ति सर्वे, सम्यक् सम्यक् इत्येव वक्तुम् इच्छन्ति. परन्तु अप्रियवाक्यं यद्यपि हितकरं भवति, तत् तादृशवाक्यं वक्तुमपि न इच्छन्ति, श्रोतुमपि न इच्छन्ति. केचन जनाः एव तादृशं वाक्यं वक्तुं श्रोतुं च इच्छन्ति इति. परन्तु अन्वयः कः इति न जानामि. कनेक्षन् किं? सुलभाः पुरुषाः सर्वदा यत् यत् चिन्तयति तदेव वदन्ति. इत्युक्ते ते पथ्यवाक्यमेव वदन्ति, पथ्यवाक्यमेव चिन्तयति, यत् हितकरम् अस्ति, यत् साहाय्यं साहाय्यकरम् अस्ति तादृशचिन्तनमेव मनसि आगच्छति तादृशवाक्यमेव वदति वदन्ति तादृशकार्यमेव कुर्वन्ति इति परन्तु प्रियवादिनः इत्युक्ते सर्वदा प्रियं जनयति तादृशवाक्यम् एव न परन्तु अप्रियं जनयति अपि परन्तु पथ्यवाक्यमेव ते वदन्ति इति के सुलभाः पुरुषाः
பகினி தமிழ்ல தட் இஸ் சேயிங் பகினி அழ சொல்லுவா தம் மனுஷா சிரிக்க சிரிக்க சொல்லுவா பிரத்யார் மனுஷா அதாவது அவர் ஓன் பீப்புள் வில் சே வாட் இஸ் குட் ஃபார் யூ
யூ ஆர் குட்
பட் விச் இஸ் நாட்
சேயிங்
இன் தமிழ் ஆல்சோ சேம்
திங் கரெக்ட் கரெக்ட் மை கிராண்ட்மா யூஸ் டு சே த அழ சொல்லுவார் தமர் சிரிக்க
சிரிக்க சொல்லுவா பிரத்யார் பிரர் ஆமா தன்யவாதம் பகினி
தன்யவாதம் अस्तु अग्रे अग्रे गच्छामः सो अत्र वयं यथा अहम् उक्तवती पुस्तकद्वयम् अभवत् सो इदानीं बालमोदिनीतः एकां कथाम् अहं चितवती पूर्वमेव पठितवन्तः वयं न अन्यजनाः पठितवन्तः इति श्रमस्य मूल्यम् इति राजा रामः सङ्कलनकः अस्ति सो अस्तु पठितुम् इच्छति वा कोऽपि अस्तु अम्ब अस्तु अम्ब पठति वा पठतु
पठामि
पठतु भगिनि अम्ब
कदाचित् राजा वेषान्तरं धृत्वा अश्वशकटं स्वयं चालयन् देशसञ्चारं कुर्वन् आसीत् तद्वसरे कश्चन ग्रामः यदा आसन्नः तदा शकटचक्रस्य नेमिः चक्रात् पृथक् अभवत् नेमियोजनार्थं लोहकारम् अन्विषयन् राजा ग्रामे अटितवान् लोहकारस्तु प्राप्तः किन्तु सः अवदत् अद्य एकादशी विरामदिनम् एतत् अतः अहं कार्यं न करोमि इति
अस्तु अस्तु पूर्णं पठतु अहं
सुदरात् प्रदेशात् आगतः नेमियोजनं विना शकटः अग्ने नेतुं न शक्यः अतः कृपया साहाय्यं क्रियताम् इति प्रार्थितवान् राजा
प्रार्थितवान् राजा अत्र किम् अभवत् कदाचित् राजा वेषान्तरम् इत्युक्ते
डिस्गैस्
राजवेषं त्यक्त्वा साधारणवेषं धृतवान् अन्य राजा साधारणतया उत्तमानि वस्त्राणि धरति खलु परन्तु तादृशं न धरति अस्मिन् समये एतस्मिन् समये साधारणवेषं धृत्वा साधारण वस्त्राणि धृत्वा अश्वशकटम् इत्युक्ते हार्स् कार्ट् अश्वशकटं स्वयं चालयन् सो अत्र चालयन् इति णिच् प्रत्ययः इति वदामः णिच् चलामि इत्युक्ते अहं स्वयं चलामि परन्तु शकटं चालयामि इत्युक्ते अन्यं चालयामि णिच् प्रत्ययः सो अत्र अश्वशकटं स्वयं चालयन् देशसञ्चारं कुर्वन् आसीत् सो एतादृशं चालयन् कुर्वन् एतादृशं शत्रु प्रत्यय इति वदामः शत्रन्तरूपम् इत्युक्ते डेफिनेशन् इति वदामः खलु डेफिनेशन् किम् इति अस्ति चेत् चलनकार्यस्य आरम्भः अभवत् परन्तु समाप्तिः न अभवत् सो अत्र शकटस्य चलनम् आरब्धवान् अपि च देशसञ्चारम् आरब्धवान्। सो अत्र चालयन् कुर्वन् इति शत्रन्तरूपम्, शत्रन्तरूपम् इति कृदन्तपदम् इति वदामः। कृदन्तपदम् इत्युक्ते धातुतः आगच्छति, कृधातुतः कुर्वन् इति, चल् धातुतः चालयन् इति। अत्र प्रातिपदिकम् अस्ति चालयत्, कुर्वत् इति। सो अत्र नामपदम् एतत्, सो नामपदम् अस्ति, कृदन्तरूपं धातुतः आगच्छति, शत्रन्तरूपम् अत्र अस्ति, प्रथमा विभक्ति पुल्लिङ्ग एकवचनरूपम्। परन्तु अन्य प्रत्यय अन्यप्रत्यय अपि कृदन्तप्रत्ययं वयं जानीमः, पठितवान्, कृतवान् इति। तत्र कृतवान् इति वदामः चेत् आसीत् इति अस् धातु आवश्यकम् इति नास्ति, परन्तु शत्रन्तरूपे आवश्यकता अस्ति। कुर्वन् आसीत्, केवलं कुर्वन् इति वाक्यं समाप्तं न भवति, पूर्णवाक्यं न भवति। सो एतादृशं चालयन् कुर्वन् आसीत्, परन्तु चालयन् गतवान्, चालयन् गच्छति इति सम्यक् अस्ति। परन्तु अहं किं वदामि इत्युक्ते अन्यधातु आवश्यकम्, अन्य क्रियापदम् आवश्यकं, केवलं शत्रन्तरूपं न पर्याप्तम्, अपर्याप्तम् इति। तद् अवसरे, तस्मिन् अवसरे अथवा तद् अवसरे किम् अभवत्, कश्चन ग्रामः यदा आसन्नः, आसन्नः इत्युक्ते प्राप्तः, पार्श्वे आगतः, यदा तत्र आगतः, ग्रामः पार्श्वे आगतः, तदा शकटचक्रस्य नेमि, चक्रमेवम् अस्ति नेमि, एतादृशम् अस्ति अग्रभागः अस्ति नेमि। नेमिः चक्रात् पृथक् अभवत्, बहिः अपगतः। अस्तु अम्ब, एतत् करोतु, नेमियोजनार्थं लोहकारम् अन्विष्यन्, अत्रापि शत्रन्तपदं, राजा ग्रामे अटितवान्, लोहकारः तु प्राप्तः, किन्तु सः अवदत् अद्य एकादशी विरामदिनम् एव एतत्, अतः अहं कार्यं न करोमि। वक्तुमिच्छति वा? सः किमर्थं लोहकारम् अन्विष्टवान्?
नेमियोजनार्थं लोहकारम्।
उत्तमं, नेमियोजनार्थं लोहकारम् अन्विष्टवान्। सो अत्र लोहकारः प्राप्तवान् वा?
प्राप्तवान्,
परन्तु सः किम् उक्तवान्? अहं कार्यं करोमि, करोमि इति उक्तवान्। उत्तमम्, अहं कार्यं न करोमि इति उक्तवान्, धन्यवादः अम्ब। अस्तु अग्रे, लता भगिनी,
अहं सुदूरात् प्रदेशात् आगतः, नेमियोजनं विना शकटः अग्रे नेतुं न शक्यः, अतः कृपया सहायं क्रियताम् इति प्रार्थितवान् राजा।
अस्तु, अन्यदपि पठतु, परन्तु अत्र किम् अस्ति इति प्रथमं वदतु, अनन्तरम् अन्य पङ्क्तिमपि पठतु।
राजा उक्तवान्, अहं दूर प्रदेशात् आगतवान्, नेमियोजनं विना अहं अग्रे जातुं न शक्नोमि, अतः कृपया सहायं कुरु इति प्रार्थितवान् राजा।
धन्यवादः भगिनी। सो अत्र किञ्चित् वदामि, सो अत्र सु इति उपसर्गः इव अस्ति. सु इति अस्ति चेत् बहु दूरात् इति अर्थे. आगतः, सो अत्र आगतवान् इति सम्य आगतवान् इति तवतु प्रत्यय. सो अत्र अटितवान्, आगतवान्, तादृशम्. आगतवान् इति कृदन्तपदं. कथं जानीमः कृदन्तपदम् इति? कृदन्त इत्युक्ते धातुतः आगच्छति. सो अटितवान् इत्युक्ते सो अत्र अपि एतादृशम् एव. एतादृशं वयं लिखामः चेत् वाक्यस्य पूर्णमासीत्. प्राप्तः, अत्र प्राप्तवान् इति तवतु प्रत्यय. प्राप्तः इति क्त प्रत्यय. एवमेव आगतः अपि क्त प्रत्यय. नेमियोजनं विना नेमियोजनं विना. सो अत्र द्वितीया विभक्ति अस्ति. विना विना योगे द्वितीया तृतीया पञ्चमी अपि भवति. शकटः अग्रे नेतुं न शक्यः. शकटः शकटः न शक्यः. अत्र कीदृशपदम् कीदृशवाक्यम् इत्युक्ते कर्मणि वाक्यं. शकटः न नेतुं न शक्यः इति कर्मणि प्रयोगः. कर्मणि प्रयोगः अस्ति चेत् कर्ता कर्तुः विभक्ति का? प्रथमा विभक्ति न भवति,
तृतीया भगिनी.
सो अत्र तृतीया विभक्ति अस्ति, परन्तु अत्र कर्ता नास्ति. कर्ता अस्ति चेत् तृतीया विभक्ति नास्ति. अहं सुदूरात् प्रदेशात् आगतः. मया नेमियोजनं विना शकटः अग्रे नेतुं न शक्यः. मया द आङ्ग्लभाषायां विदौट् द ने विदौट् द नेमि विच् ऐ थिङ्क् इस् दि औट्सैड् रिम् इति. रिम् 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 विना शक द कार्ट् केनाट् बि टेकन् अहेड् बै मी. एतादृशं भवति. भाषान्तरं कुर्मः. अतः कृपया साहाय्यं क्रियतां, करोतु क्रियताम् इति प्रार्थितवान् राजा. अस्तु, अग्रे अपि पठतु भगिनि, लता भगिनि.
आम् भगिनि. सः लोहकारः एतां प्रार्थनां पुरस्कुर्वन् अवदत्, अहं तु सहायं कर्तुं सज्जः, किन्तु अद्य नास्ति मम सहायकः. यदि भवान् वस्त्रादण्डं चालयन् वायुं पूरयेत् तर्हि कार्यं सम्पत्येत इति. सम्पत्येत इति. लोहकारः प्रार्थनां श्रुत्वा वदति, अहं तु सहायं कर्तुं शक्नोमि, परन्तु अद्य न. यदि भवान् वस्त्रादण्डं
वस्त्रादण्डं
यदि भवान् वस्त्रादण्डं चालयति तर्हि अहं कार्यं नेमियोजनं करोमि इति.
अस्तु, सम्यक्. सो वस्त्रादण्डं कुर्मः. धन्यवादः भगिनि. वस्त्रादण्डं कुर्मः चेत् वायुः भवति. वायुः अस्ति चेत् तत्र अग्निः अपि वर्धते. सो अग्निः आवश्यकम् आवश्यकः इति. सो अतः मम साहाय्यकः नास्ति. भवान् साहाय्यं करोति चेत् अहं करोमि, नो चेत् कथं करोमि इति. सः लोहकारः एतत् प्रार्थनां पुरस्कुर्वन् इत्युक्ते अङ्गीकरोति वा न अङ्गीकरोति वा?
अक्सेप्ट भगिनि.
अक्सेप्ट, अङ्गीकरोति. सः राजा वदति आवश्यकं, भवतः साहाय्यम् आवश्यकं, कृपया इति. कृपया साहाय्यं करोतु इति. तादृशप्रार्थनां सः सः अस्तु अहं करोमि, परन्तु मम साहाय्यकः नास्ति. सहाय अत्र साहाय्यमपि सम्यक्, सहायमपि सम्यक्. साहायकः सहायकः द्वौ अपि सम्यक्। भवान् साहाय्यं करोति चेत् अहं करोमि इति उक्तवान्। अस्तु अग्रे निर्मला भगिनी।
राजा एतत् अङ्गीकृत्य वस्त्रदण्डचालनम् आरब्धवान्। तेन इतः पूर्वं श्रमप्रदानं कार्यं न कृतम् इत्यतः तस्य शरीरतः स्वेदधारा निर्गता। तथापि सः कार्यम् अपरित्यजन् कष्टेन लोहकारस्य सहायं कृतवान्।
अस्तु भगिनि।
राजा सहायं कर्तुं वदति कर्तुम् आरब्धवान्।
सम्यक्।
राजा श्रमप्रदानं मीन्स् सच् वट् इस् दट् भगिनि
कष्ट उत्कृष्टम् इत्युक्ते एतादृश श्रमकार्यम् इत्युक्ते श्रमम् एव प्रधानम् अस्ति इत्युक्ते श्रमं विना एतत् कार्यं कर्तुं न शक्नुमः। तादृशकार्यं फिसिकल् लेबर् इति वदामः।
He was not used to this
type of very tough physical labor.
So he started sweating, is it? Shvedhara.
Shveda itikte sweating, dhara itikte pouring like that. Shariratah, shveda dhara nirgata. Anantara.
Aparityajan means he stopped doing the work.
Not stopping. Aparityajan is tyajan. Aparityajan, not stopping.
Without stopping.
Kashtena lohakarasya sahayam kritavan.
He started helping the...
helping the lohakarah etadrisha kashta yukta karyam sah purvam na kritavan. Kashtameva pradhanam samameva pradhanam tadrisha karyam sah purvam na kritavan iti karanatah tasya shariratah svedadhara nirgata. Purvam etadrisha karyam कृतवान् इति अनुमानं कुर्मः चेत् एतादृशस्वेदधारा न आगतः परन्तु इदानीम् आगता। अस्तु अग्रे सागरि भगिनि। धन्यवादः भगिनि। निर्मला भगिनि।
आं भगिनि, कार्यं समाप्तं चक्रं शकटे योजितम् अपि शकटं योजितम् अपि। ततः राजा अपृच्छत् एतदर्थं कियत् देयम् इति। लोहकारः कार्यं समाप्तं कृतवान्। सः चक्रं शकटे योजितवान्। राजा कृतज्ञः आसीत्, अतः पृष्टवान् कियत् धनं ददामि इति।
सम्यक्, धनं ददामि इति। कृतज्ञः इत्युक्ते किं भगिनि?
ऐ थाट् इट् मेण्ट् ग्रेट्फुल्, इस् दट् करेक्ट्?
आमां निश्चयेन। ऐ जस्ट् वाण्टेड् अदर्. Yet anyah yet
just added some little thing bagini. I hope that's okay.
No, no, Uttam. No, it's very okay, Bhagini. Very okay. Exactly what you should do. That's how we practice the language. Kalo? Tadasham, tadasham eva. Kritajnyaha itikte, agnyaha itikte, knowledge, jnatavan iti. Aham samskritam janam itikte, samskritajnyaha iti. Vijnanam janami vijnana ajnaha ajnana like that eva srilingam ajnana iti so atra yat anyaha so atra lohakarah yat kritam tat sah janati iti appreciate iti vadamakalo tat sah janati tasya prayojanam mulyam sah janati iti so atah कृतज्ञः इति उत्तमम् अस्तु अग्रे सन्ध्या भगिनी वक्तुं न इच्छत् वक्तुं शक्नोति वा न वा इति न जानामि न जानाति चेत् न शक्नोति चेत् सविता भगिनी
अहं पठामि भगिनि
अस्तु भगिनि पठतु
षट् रजत नाणकानि लोहकारः अवदत् राजा षट् सुवर्णनाणकानि अयच्छत् तत् दृष्ट्वा आश्चर्यम् अनुभवन् लोहकारः आर्य षट् रजतनाणकानि देयानि इति मया उक्तम् भवता तत् सम्यक् न श्रुतम् इति मन्ये अतः षट् सुवर्णनाणकानि दत्तानि इति वदन् सुवर्णनाणकानि प्रतिदातुम् उद्यतः राजा पृष्टवान् कियत् धनं ददामि इति लोहकारः उक्तवान् षट् रजतनाणकानि इति उक्तवान् राजा रजतनाणकानि न ददाति अपि तु सुवर्णनाणकानि ददाति लोहकारः आश्चर्येण पश्यति लोहकारः उक्तवान् आर्य अहं केवलं रजतनाणकानि इच्छामि किमर्थं भवान् सुवर्णनाणकानि ददाति इति पृष्टवान् तत्पश्चात् लोहकारः सुवर्णनाणकानि राजां ददाति
राज्ञे ददाति बिकम्स् चतुर्थी राज्ञे ददाति राज्ञे दातुं सिद्धः आसीत् उद्यतः सिद्धः हि गाट् रेडि प्रतिदातुं प्रतिदातुम् इत्युक्ते सः ददाति रिटर्न् प्रतिदातुं सिद्धः आसीत् प्रति अर्पयितुं सः एकवारम् अर्पितवान् अर्पयितुं सिद्धः अत्र मुद्रणदोषः अस्ति दत्तवान् इति अदत् अददात् इति लङ्लकाररूप अग्रे वयं पठामः एतत् अस्तु सिद्धः आसीत् अस्तु अग्रे सविता भगिनी
आं भगिनि तदा राजा तेषां स्वीकरणं निराकुर्वान् अवदत् मया बुद्ध्या एव सुवर्णानकानि दत्तानि सुवर्णनाणकानि दत्तानि मया जीवने एतां प्राथम्येन
ऐदम्
ऐदम् अस्ति ऐदं प्राथम्येन श्रमः कृतः श्रमस्य आनन्दः कीदृशी इति ज्ञातं च श्रमस्य महत्त्वं बोधितवते भवते गुरुदक्षिणारूपेण एतद् धनं दत्तं मया
एतावत् पर्याप्तं भगिनि अन्य कोऽपि पठतु एतत् वदतु
तथा राजा तेषां स्वीकरणं निराकुर्वन् अवदत् मया बुद्ध्या एव सुवर्णनाणकानि दत्तानि राजा सुवर्णनाणकानि स्वीकरणम् अस्वीकृतवान् सः अवदत् बुद्ध्या एव सुवर्णनाणकानि दत्तानि इति अहं दत्तवान् मया जीवने ऐतां दिस् वर्ड् मीनिङ्ग् ऐ डु नाट् नो भगिनि ऐतां प्राधान्यं
सो अत्र इदम् इदं विकेम् ऐदम् प्राथम्येन प्राथम्येन प्रथमवारम् एतादृश प्रथमवारम् इति
फार् द फस्ट् टैम् ऐ सी ओके फार् द फस्ट् टैम् यस् डन् दिस् हार्ड् वर्क् ओके ओके सो राजा
दिस् इस् द राङ्ग् वर्ड् प्रति अर्पयितुं सो दिस् इस् दिस् राङ्ग् वर्ड् मुद्रणदोषः अस्ति सो अत्र ऐदं प्राथम्येन श्रमः एतादृश प्रथमवारम् इति अर्थे
राजा जीवने प्रथमवारं श्रमं कृतः इति श्रमस्य आनन्दः कीदृशी इति ज्ञातं च अतः श्रमस्य महत्त्वं बोधयित्वा गुरुदक्षिणारूपेण एतद् धनं दत्तवान् इति राजा उक्तवान्
सम्यक् अस्तु इति सः उक्तवान् बुद्ध्या एव अहं ज्ञात्वा एव स्वर्णनाणकानि दत्तानि अहं दोषं न कृतवान् अहं बुद्ध्या उत्तमपदं बुद्ध्या एव अहं कृतवान् श्रमस्य महत्त्वं बोधितवान् स्वत्र बोधितवत् इति मूलरूपं प्रातिपदिकं बोधितवान् कः बोधितवान् लोहकारः बोधितवान् सो अत्र बोधितवते बोधितवत् इस् लैक् भवत् शब्दः चतुर्थी भवत् इस् भवते तादृशं बोधितवत् इति प्रातिपदिकं चतुर्थी विभक्ति बोधितवते भवते गुरुदक्षिणारूपेण एतद् धनं दत्तं मया इति उत्तमम् अस्तु भगिनि उषा भगिनि पठितुमिच्छति वा न वा अस्तु तर्हि चम्पा भगिनि अन्तिम
आं भगिनि एतावत् उक्त्वा राजा सकटम् आरुह्य वेगेन तत् निर्गतवान् तस्यां दिशि एव साक्ष्यायां द्रष्टिं निन्दधानः अतिष्ठत् लोहकारः
तस्यां दिशि एव साश्चर्यां दृष्टिं निदधानः अतिष्ठत् लोहकार अस्तु भगिनि वदतु एतावत् उक्त्वा
राजा सकटम् आरुह्य वेगेन तत् निर्गतवान् भगिनी अहम्
अस्तु अन्य कोऽपि प्रयत्नं कर्तुम् इच्छति वा
अहं करोमि वा भगिनि
अस्तु भगिनि
राजा शतकम् आरुह्य गतवान् लोहाकारः आश्चर्यचकित अश्रूणि निमील्य स्थितवान्
सम्यक् भगिनी बहु सम्यक्
भगिनी निदधानः अर्थं किम्
निदधानः इत्युक्ते किं दृष्टिं निदधानः अन्य कुत्रापि न पश्यति अन्य कुत्रापि न दृष्टवान् तस्यां दिशि एव दृष्टवान् दृष्टिं निदधान्य फेसिङ्ग् हिस् ऐस् हिस् सैट् ओन्लि देर् इति दृष्टिं निदधान्य स्थितवान् लोहकारः अत्र कथायाः नाम किम् कथायाः नाम श्रमस्य मूल्यम् इतोपि पर्यन्तं राजा न अनुभूतवान् इदानीं प्रथमवारम् अनुभूतवान् तस्य कारणात् ऐ मीन् तस्मात् कारणात् एव गुरुदक्षिणारूपेण स्वर्णनाणकानि दत्तवान् इति कथा
धन्यवादः भगिनि
धन्यवादः अस्तु इदानीं अहं किञ्चित् अन्वेषणं करोमि कुत्र अस्ति इति अहं कृतवती परन्तु गीता स्वर्णम् अस्तु अस्तु एतावत् पर्यन्तं वयं पठितवन्तः खलु कथा आसीत् कथायाः अनन्तरं प्रश्नाः आसन् तत् सर्वं पठितवन्तः इदानीं एतेषां शब्दानां विभक्तिं वचनं च लिखत इति सो उत्तमं भवति अत्र उदाहरणार्थं यथा पाण्डवानाम् इति अस्ति चेत् षष्टि बहुवचनम् इति अस्ति सो अत्र सेनयोः इति किं भवति चम्पा भगिनी तत् चम्पा भगिनी सह आरम्भं कुर्मः सेनयोः
भगिनी क्षम्यताम कः पृष्ठसङ्ख्या
अस्तु गीतासोपानतः 109
धन्यवादः भगिनि
निश्चयेन भगिनि
एतेषां शब्दानां विभक्तिं वचनं च लिखत यथा पाण्डवानां षष्टिविभक्तिः बहुवचनं सेनयोः षष्टिविभक्तिः द्विवचनं
सम्यक्
युद्धभूमौ सप्तमी एकवचनं
सो एतत् अस्ति अत्र सेनयोः इति अस्ति चेत् षष्टि अपि भवति सप्तमी अपि भवति सप्तमी अपि भवति परन्तु वयं जानीमः भगवद्गीतायां षष्टि एव खलु सेनयोः उभयोः मध्ये इति अस्ति मध्ये इति अस्ति चेत् षष्टि एव सम्यक् परन्तु रूपम् इति पश्यामः चेत् षष्टि अपि सप्तमी अपि समानमेव भूमौ इति सप्तमी एकवचनं अस्तु अम्ब
भगिनी एक प्रार्थना लिङ्गम् अपि
अस्तु अस्तु आमां निश्चयेन सेनयोः धन्यवादः भगिनि सो अत्र सेनयोः लिङ्गं किं भगिनि विभक्तिवचन एव अस्ति लिङ्गमपि वदामः
तेनयोः पुल्लिङ्गे अस्ति
सम्यक् पुल्लिङ्गे
लिङ्गे अस्ति
पुल्लिङ्ग सो अतः एवं लिखामः पुल्लिङ्ग षष्टि द्विवचनम्
भगिनी इसन् सेना श्रीलिङ्गम्
सेना इस् श्रीलिङ्ग बट् सेनयोः ओ सेना वा आम् आं भगिनि सेना एव क्षम्यताम् सेना सेना इति सेनयोः एव भवति आं भगिनि ऐ वासन्ट् थिङ्किङ्ग् आम् सेना सेनयोः सम्यक् सेनायाः अत्र त्रीणि रूपाणि कथं भवति सेनायाः सेनयोः
सेना सेना सप्त षष्टि षष्टि विभक्ति
सेनायाः सेनयोः सेनानां सेनानाम् इति त्रीणि रूपाणि भवन्ति सो अत्र युद्धभूमौ इति अस्ति सो अत्र मूलरूपं किं तदपि वदामः मूलरूपं किम् इति जानीमः चेत् लिङ्गमपि जानीमः युद्धभूमौ सप्तमी एकवचनम् इति अभवत् अनन्तरं युद्धभूमिः इति अस्ति चेत् लिङ्गं किं
युद्धभूमिः स्त्रीलिङ्गे अस्ति
स्त्रीलिङ्गे स्त्रीलिङ्गसप्तमी एकवचनं युद्धभूमौ त्रीणि रूपाणि कथं भवति युद्धभूमौ
युद्धभूमौ
भगिनी स्त्रीलिङ्ग यां भगिनी युद्धभूम्यां
भूम्याम् अपि सम्यक् उत्तमं भगिनि भूम्याम् अपि सम्यक् भूमौ अपि सम्यक् स्त्रीलिङ्ग अस्ति चेत् विकल्पद्वयं भवति भूमौ अपि सम्यक् भूमि अपि सम्यक् सो अत्र पश्यामः सन्देहः अस्ति चेत् निश्चयेन पश्यामः अत्र ओ अत्र संस्कृतभाषा अपेक्षिता अस्ति अत्र पश्यामः भूमिः स्त्रीलिङ्गपदम् भूम्याम् अपि भवति भूमौ अपि भवति निश्चयेन भगिनि किं भगिनि मतिवत् परन्तु दीर्घमस्ति चेत् किं भवति नदी इति अस्ति चेत्
गौरी नदीवत्
नदी इति अस्ति चेत् विकल्पद्वयं भवति वा न वा
विकल्पं
दीर्घ अस्ति चेत् न
भवति दीर्घम् अस्ति चेत् न भवति
न
भवति एकमेव रूपं नद्यां नद्यामेव भवति एतादृशं सर्वदा पश्यन्तु अस्तु वा नो चेत् वर्धनं न भवति सो युद्धभूमिः इति स्त्रीलिङ्गपदं युद्धभूम्याम् अपि सम्यक् परन्तु सर्वदा वयं भूमौ एव पश्यामः रात्रौ रात्र्याम् इति न वदामः रात्रौ अस्तु विषयान् इति अम्ब विषयान् अम्ब अस्ति वा अस्तु अग्रे अस्ति अस्ति विषयान् इति अस्ति किं किं बहुवचनम् अस्तु कस्य बहुवचनं विभक्ति का बालकान् बालकान् पश्यतु विषयान् शृणोतु
द्विवचनं
द्वितीया विभक्ति सम्यक् द्वितीया विभक्ति बहुवचनं द्वितीया विभक्ति बहुवचनं पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा
पुल्लिङ्ग भगिनि
अहं मम अम्बां पृच्छामि परन्तु पुल्लिङ्ग सम्यक् पुल्लिङ्ग पुल्लिङ्ग द्वितीया विभक्ति न नास्ति चिन्ता भगिनि पुल्लिङ्ग द्वितीया विभक्ति बहुवचनं बहुवचनं त्रीणि रूपाणि कानि विषयं प्रथम एकवचनं विषयं विषयौ विषयान् विषयान् अस्तु अस्तु विषयान् अस्तु अग्रे अग्रे का लता भगिनि धन्यवादः
भगिनि विश्वरूपदर्शनेन तृतीया एकवचनं नपुंसक विश्वरूपदर्शनं नपुंसकलिङ्ग भगिनि
दर्शनं आम् नपुंसकलिङ्ग एकवचनं
एकवचनं विश्वरूपदर्शनेन विश्वरूपदर्शनैः
दर्शनैः सम्यक्
धन्यवादः
सम्यक् भगिनि अस्तु कौरवाणां निर्मला भगिनि
कौरवाणां षष्ठी विभक्ति बहुवचनरूपे
अस्तु लिङ्गं लिङ्गं
पुल्लिङ्गं
पुल्लिङ्गं पुल्लिङ्गं त्रीणि रूपाणि
फोर्थ् वन्
कौरवस्य कौरवयोः कौरवाणां
कौरवस्य कौरवयोः कौरवाणाम् अस्तु सम्यक् उषा भगिनी प्रश्नः कः अभवत् भगिनि विश्वरूपदर्शनं नपुंसकलिङ्गपदम् अत्र तृतीया विभक्ति एकवचनं अभवत्
भगिनि कौरवाणां षष्ठी विभक्ति कः पुल्लिङ्ग ऐ मीन् कः लिङ्गः
पुल्लिङ्ग
एक मिनिट्
अस्तु अग्रे अग्रे सागरी भगिनि
आं भगिनि अर्जुनाय पुल्लिङ्गं चतुर्थी एकवचनं
सम्यक् अर्जुनः पुल्लिङ्ग चतुर्थी एकवचनं पुल्लिङ्गचतुर्थी एकवचनं सम्यक्
अर्जुनाय अर्जुनाभ्याम् अर्जुनेभ्यः
सम्यक् अर्जुनाभ्याम् अर्जुनेभ्यः सम्यक् सन्ध्या भगिनि
भगवान्
भगवत् शब्दः खलु भगिनि आं भगवत् आं भगवत् इति मूलरूपम्
प्रथमा एकवचनं
सम्यक् प्रथमा एकवचनं पुल्लिङ्गपदं प्रथमा एकवचनं प्रथमा एकवचनं अस्तु सविता भगिनी रते
रतः इस् पुल्लिङ्ग भगिनी
पुल्लिङ्ग
रते सप्तमी एकवचनं
सप्तमी एकवचनं त्रीणि रूपाणि
रथे रथे रथयो देवे देवयोः देवानां रथे रथयोः रथानां
रथानां भवति वा षष्टि षष्टिविभक्त्यौ अथवा विभक्तौ तत्र नाम भवति
देवस्य देवयोः देवानां देवे देवयोः देवेषु रथे रथयोः रथेषु
रथेषु षु भवति रथे रथेषु
I have to recollect that Deva, Bhagini, only in this fits.
Ma'am, it's okay, Bhagini.
Both pieces, yes, Bhagini.
No, the next time I ask, you will remember this, sure.
Yes, yes, Bhagini.
Yeah, and that's how it is. Sandhya, Bhagini.
Rate, Rateho, Rateshu. Okay,
Bhagini. Rateshu. Bhagavan iti pratama vibhakti eka vachanam. Trini rupani katam bhavati. पश्यामः वा सन्ध्या भगिनी
भवान् सम भवान्
भगवत् भगवत् भवान् समान भगवत् भगवत् कथं कथं भवति सम्यक् सम्यक् भगिनी सो अत्र सम्यक् वा इति एकवा भगवान् भगवन्तौ भगवन्तः भवान् इव भवान् भवन्तौ भवन्तः समानं भवति समानम् अस्तु अत्र तकारान्तपदं तकारान्त भगवत् भवत् इव अस्तु उषा भगिनी अग्रे पितॄन्
पितॄन् पितॄन् पितॄन् पिता ऋकारान्त
ऋकारान्तपदं ऋकारान्तपदं ऋकारान्त पुल्लिङ्गपदम्
द्वितीयविभक्ति
द्वितीयविभक्ति द्वितीया बहुवचनं पितॄन्
पितॄन्
पुनः पुनः भगिनी
पितरं पितरी पितरौ पितृ
सम्यक् सम्यक् पितरं पितरौ पितॄन् सम्यक् अस्तु चम्पा भगिनी भेरीः
भेरीः द्वितीया बहुवचनं द्वितीया बहुवचनं भेरी गौरी समान भगिनी
गौरी समान
भेरी भेरीः भेरीः गौरीः लैक् द्वितीया
द्वितीया वचनं सम्यक् इदानीं त्रीणि रूपाणि कथं भवति
गौरीं ऐ मीन् भैर्योः ऐ मीन् भैर्यो गौरीः सो भेरीः
भेरी गौर्यौ इव खलु भेर्यौ
गौर्यौ सो भैर्यौ
भेर्यौ
भेरीं भैर्यौ
भेरीः
त्रीलिङ्गमस्ति
त्रीलिङ्गम् एवम् अस्ति अस्तु अग्रे गच्छामः वा अस्तु एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां पुरतः चिह्नं कुरुत इत्युक्ते भूतकाल अर्थ शब्दानाम् इत्युक्ते उक्तवान् इति भूतकालशब्दः भूतकालशब्दः अस्तु अम्ब वदति वा स्थापय इति भूतकालार्थशब्दः वा
स्थापय
अम्ब अस्ति वा? अस्तु, सो अत्र स्थापय इच्छामि पश्य वादितवन्तः, एतेषु वदतु एतेषु किं पदं भूतकालार्थकं पदम्? अम्ब सो स्थापय इति भूतकालार्थकपदं वा? स्थापय अम्ब किम् अभवत्? समस्या वा? समस्या
समस्या समीपे नास्ति वा?
न भगिनि, अहं मम फ्लाट् मध्ये अस्मि. मम अम्बान् दृष्ट्वा अत्र आगतवती. अस्तु, अत्र अम्ब वदतु, अम्ब स्थापय इति भूतकालार्थपदं वा न वा?
न.
उत्तमम्. इच्छामि इति
न.
पश्य इति
न.
बाधितवन्तः इति बाधितवान्, बाधितवन्तौ, बाधितवन्तः. उत्तमम्. धन्यवादः. अस्तु, लता भगिनी भवती वदतु.
भगिनी, आसन् भूतकाल, आसीत् भूतकाल, कृतवान् अपि भूतकाल.
अस्तु भगिनि, धन्यवादः भगिनि. निर्मला भगिनी भवतु. अभवत्
भूतकाल,
कृतवन्तः
भूतकाल,
अचिन्तय
भूतकाल.
न, अस्तु. सागरी भगिनी अग्रे.
आं भगिनि, दर्शितवान् भूतकाल, अनुशोचति न, मारितवान् भूतकाल, कुरु न,
प्राप्तवान्
भूतकाल.
अस्तु, सन्ध्या भगिनी अग्रे.
उपविष्टवान् भूतकाल, अस्मि वर्तमानकाल.
Cannot hear her, Bhavini.
Not भूतकाल.
Not भूतकाल. अस्तु, अस्तु. सविता भगिनी.
आं भगिनि, दृष्टं भूतकाल नास्ति, कृत्वा
भूतकालः एव. किमर्थम् इत्युक्ते प्रत्यय लैक् दृष्टवान् इति अस्ति, तादृशं दृष्टम् इति, तेन दृष्टं कर्मणि प्रयोगे भवति. एतदपि भूतकाल एव.
कृत्वा भूतकालः
किञ्चित् भूतकालं सूचयति, परन्तु सो एवं लिखामि.
कृत्वा
भूतकालं प्रायः
कार्यं कृत्वा, कार्यं कृत्वा,
कृत्वा
कण्टिन्यूस् भगिनि.
No, no, no. Actually, this is an avyayam, bhagini. So, I cannot say like that. I'm just going to say no. Sthapayitva?
Sthapayitva. Past continuous. Bhutakala.
सो एतत् अपि त्वान्तपदम्. सो दिस् इस् अ त्वा त्वा. सो दिस् इस् एन् अव्ययम्. दिस् उषा भगिनी अग्रे.
विसृज्य विसृज्य थिङ्क् इट् इस् एन् अव्ययपदम्.
अव्ययम् अव्ययम् उक्त्वा
उक्त्वा इस् भूतकाल ऐ थिङ्क्
दिस् इस् त्वान्तपदं. सो इट् इस् एन् अव्ययम् अव्ययमेव. अस्तु अग्रे अग्रे पठामः वा. पाठं पठित्वा एतान् भगिनि वदतु.
स्थापय चिन्तय इत्यादि लोट्लकार वा भगिनि.
लोट्लकार स्थापय पश्य एतादृश. सो अत्र स्थापय पश्य इति मध्यमपुरुष.
कुरु अपि लोट्लकार खलु भगिनि.
किं
कुरु अपि लोट्लकार खलु.
आमां लोट्लकार एव मध्यम लैक् त्वं कुरु त्वं.
धन्यवादः
भगिनि. धन्यवादः. सो अत्रापि त्वम् एव त्वम् त्वं स्थापय त्वं पश्य चिन्तय एतादृश भव
प्रेरणा लोट्लकार
प्रेरणा लोट्लकार प्रेरणा आज्ञा आज्ञा प्रार्थना प्रेरणा एतादृशं. पाठं पठित्वा एतान् विभक्त्यन्तान् शब्दान् चित्वा लिखत. कुर्मः वा न वा.
Maybe we can do it as homework, Bhagini.
Bhagini, because this takes time. But it is a very good exercise, okay? Okay, Uttama Abhyasaha.
We have to read the story again.
Dityanta Rupan, like Shankan Udahanam, Pashyamaha. So, Atra, Dvitiya, so they want dvitiya shashti saptami. Dvitiya shashti saptami. Mahabharata yuddham nischitam. Nischitam asit. Kim nischitam asit? Mahabharata yuddham. So atre yuddham iti prathama va dvitiya va?
Dvitiya.
Dvitiya.
प्रथम द्वितीया विभक्ति एकवचनं
प्रथम अहं वदामि प्रथमा इति.
ओ
कथं कथं जानीमः इत्युक्ते आसीत् इति क्रियापदं. किम् आसीत् निश्चितम्
आसीत्.
किं निश्चितम् आसीत् महाभारतयुद्धम्. सो अतः प्रथमा वा द्वितीया वा.
प्रथमा
आसीत् आसीत्
क्रियापदं.
न आसीत् इस् नाट् प्रथमा विभक्ति. आसीत् इस् अ क्रियापदं
क्रियापदं.
महाभारतयुद्धम् आसीत् भूतकालरूपम्. कर्तृपदं. सो 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 देयरफॉर इट इज प्रथमा विभक्ति. सो अत्र अत्र पश्य निश्चयेन भगिनि. सर्वदा दट् इस् एन् एक्सलेण्ट् क्लू. किमर्थम् इत्युक्ते आसीत् सन्ति अस्ति एतादृशक्रियापदम् अस्ति चेत् निश्चयेन प्रथमा विभक्ति इति अनुमानं कर्तुं शक्नुमः. अग्रिम वाक्यं पश्यामः. युद्धं कर्तुं इच्छन्तः कौरवाः पाण्डवाः च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन् अभवन् के अभवन्
कौरवाः
पाण्डवाः च अस्तु सो अत्र इच्छन्तः किम् इच्छन्तः युद्धम् इति द्वितीया विभक्ति सर्वदा द्वितीया विभक्ति इति कुत्र भवति इत्युक्ते त्वान्तपदम् ओके त्वान्तपदम् अपि च तुमुनन्तपदम् अपि च ल्यबन्तपदम् अपि च शत्रन्तपदम् इति
भगिनी
एतादृशपदानां पूर्वं सर्वदा द्वितीया विभक्तिरूपमेव भवति नियमः एवं भगिनी वदतु
भगिनी पुनः वदतु कः कः द्वितीयविभक्ति आगच्छति
सो अत्र त्वान्तपदं लैक् पठित्वा पठितुं प्रपाठ्य ल्यबन्तपदं ल्यप् तुमन् त्वान्तं वयं विभक्तिवल्लर्यां दृष्टवन्तः खलु एकनिमेषम् अहं स्वीकरोमि मुख्यविषयः एतत् सो अत्र सो पठति इति लट्लकाररूपं पठति लट् पठितवान् त्वान्तपदं खलु त्वा न त्वान्तं न एतत् अस्ति त्वान्त कुत्र अस्ति पठित्वा त्वान्तपदं पठितुं तुमुनन्तपदम् एतत् अस्ति ल्यबन्तपदं पठन् शत्रन्तपदं पठतु लोट्लकारः पठिष्यति लृट्लकारः पठितवान्
पठितवान्
भवतु प्रत्यय
तवतु प्रत्यय सो अत्र एतत् एकवारं स्मरामः सो अत्र कर्तुं तुमुनन्तपदं सो अतः युद्धम् इति निश्चयेन द्वितीया विभक्ति इति अनुमानं कर्तुं शक्नुमः परन्तु अत्र वाक्यदृष्ट्या अपि वाक्य अर्थं जानीमः चेत् कौरवाः पाण्डवाः अभवन् समवेताः कुत्र अभवन्
युद्धं कर्तुं
युद्धभूमौ कुरुक्षेत्रयुद्धभूमौ सो कुत्र इति प्रश्नस्य उत्तरमस्ति सप्तमी विभक्ति भूमौ इति युद्धं कर्तुम् इच्छन्तः कौरवाः सो अत्र कौरवाः पाण्डवाः कीदृशपदं प्रथमा विभक्ति वा द्वितीया वा किं
द्वितीया
बहुवचनं के अभवन् सो प्रथमप्रश्नः कर्ता कः इति अभवन् सो अत्रापि आसीत् युद्धम् आसीत् इति अभवन् के अभवन् कौरवाः पाण्डवाः इति किम् अभवत् अस्तु एतादृशम् आचार्यः भीष्मः कौरवाणां सेनापतिः आसीत् अत्र कः आसीत् आचार्यः भीष्मः सेनापतिः आसीत् एकनिमेषम् अस्तु आचार्यः भीष्मः आसीत् प्रथमाविभक्तिरूपं कौरवाणां षष्टि बहुवचनरूपं सो एतादृशं चित्वा रचनीयम् द्रुपदपुत्रः दृष्टद्युम्नः पाण्डवानां सेनापतिः आसीत् षष्टि बहुवचनं
कः आसीत् द्रुपदः पुत्रः दृष्टद्युम्नः पुत्रः आसीत्
सेनापतिः आसीत् कः आसीत् सेनापतिः आसीत् दृष्टद्युम्न न न सम्यक् एव द्रुपदपुत्रः दृष्टद्युम्नः सेनापतिः आसीत् प्रथमाविभक्तिरूपं सम्यक् एव असङ्ख्याः क्षत्रियाः तत्र सम्मिलिताः आसन् अत्र द्वितीया षष्ठी सप्तमी अस्ति वा अत्र
असङ्ख्याः क्षत्रियाः
न भगिनि
बहुवचने अस्ति
प्रथमा बहुवचनरूपं क्षत्रियाः आसन् कीदृशक्षत्रियाः असङ्ख्याः क्षत्रियाः आसन् इति भीष्मः सिंहनं कृत्वा अत्र अपि कृत्वा त्वान्तपदं सिंहनादं द्वितीय कृतवान् अत्रापि तव तु
प्रत्यय
एतादृशप्रत्ययाः आगच्छति चेत् निश्चयेन द्वितीया विभक्ति ततः सैनिकाः शङ्कान् भेरीः पणवान् आनकान् गोमुखान् स बाधितवन्तः अत्रापि तव तु प्रत्ययः अस्ति सो अत्र अतः द्वितीया विभक्ति सर्वत्र आनकान् गोमुखान् सर्वत्र द्वितीया विभक्ति अस्ति अग्रे किम् अस्ति पाण्डवाः अपि शङ्खनादं कृतवन्तः द्वितीया विभक्ति अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णम् उक्तवान् रथस्य षष्टि सारथिं श्रीकृष्णं
द्वितीया
एकवचनम् अच्युत सेनयोः मध्ये मम रथं स्थापय
लबन्त आगच्छति
इति लोट्लकार मध्यमपुरुष स्थापय रथं स्थापय रथम् इति द्वितीया विभक्ति
सेनयोः षष्टि मध्ये सप्तमी भगिनी
षष्टि सप्तमी विभक्ति
सेनयोः मध्ये
मम षष्टि
षष्टि अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि
Magni, one doubt. Now, Madhye is Saptami. So, Senayoho will also be Saptami, right? No.
It depends like that, you know. Senayoho, Madhye. So, Atra, Eka Sena Asti, Atra, Senayoho. That is Shashti, I believe. Shashti.
It will be Shashti, is it?
Because it is a sambandha. Sena sambandha.
Sena yoha madhya. If you have the answers in the back, you can check. Sena yoho iti shashtiva saptamiva iti. Astha. Atra yuddhartam. Yuddhartam.
Chaturthi.
Upasthi. Uddhartya vibhakti ekvachane.
Upasthitan iti dvitiya. Sarvan.
Dvitiya
bahuvachane. Dvitiya. Aham. Kimapi nasti. Pratam.
उत्तम पुरुष एकवचनम्
द्रष्टु
द्वितीया एकवचनं अस्ति
तुमनन्तपदं सो अतः किमपि नास्ति
नास्ति
द्रष्टुम् इच्छामि चतुर्थी सेनयोः मध्ये पुनः एतादृशं सेनयोः मध्ये स्थापयित्वा सो दिस् त्वान्तपदं सो अत्र द्वितीया विभक्ति वर्ति उक्तवान् अपि नास्ति किमपि नास्ति अत्र
सर्वान्
आम् समवेतान् सर्वान्
कुरुन्
लोट्लकारः ओके अर्जुनः तत्र पितॄन् द्वितीया बहुवचन आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः
दृष्टवान्
दृष्टवान् तवतु
तवतु प्रत्यये
सो अत्र सुहृदः उपस्थितान् तान् सर्वान् बन्धून् दृष्ट्वा सो द्वितीया सर्वत्र बन्धून् दृष्ट्वा अर्जुनः परमं विषादम्
प्राप्तवान्
इति तव तु प्रत्ययं पुनः
सुहृदश्च द्वितीया अस्ति सुहृदश्च
सुहृद सुहृद् सुहृद् इति सुहृद् दकारान्तपदम् उदाहरणार्थं भवान् इति अपि भवत् एवम् अस्ति भवत् अस्ति चेत् द्वितीया विभक्ति बहुवचनं किं भवति भवन्तं भवन्तौ
भवन्तः
भवतः द्वितीया बहुवचनम् एवं भवति किं भगिनि श्रोतुं न शक्नोमि किं
दृष्ट्वा किम् अस्ति
दृष्ट्वा इति त्वान्तपदं त्वा अर्जुनः परमं विषादं प्राप्तवान् कृष्ण एते सर्वे मम बान्धवाः एते
सर्वे
प्रथमा बहुवचनं भगिनि एते
प्रथमा एव इट् लुक्स् लैक् सप्तमी परन्तु प्रथमा एव सर्वे मम बान्धवाः एतान्
सर्वे सो भगिनी सर्वे
प्रथमा बहुवचनं
एते सर्वे मम षष्ठी भगिनी आगे
मम षष्टि मम इति षष्टि एतान् अहं मारयितुं न इच्छामि
बान्धवाः इस् वाट्
प्रथमा विभक्ति एव
मारितुं तुमुन् प्रत्यय
तुमुन् प्रत्यय सो अतः द्वितीया विभक्ति भवति एतान् एतान् बहुवचनं एषः इति पदस्य बहु बहुवचनं भवति मारयितुं न इच्छामि अहं युद्धं न करोमि युद्धं
युद्धं द्वितीया एकवचनं
द्वितीया एकवचनम् अत्र किमपि नास्ति प्रत्ययः नास्ति तुमनन्त तादृशं नास्ति अहं न करोमि किं न करोमि युद्धं न करोमि इति अस्तु इति उक्त्वा बाणं धनुः बाणम् इति द्वितीया विभक्ति धनुः
धनुः
द्वितीया एव द्वितीया एव आम् धनुः इस् द्वितीया अत्र पश्यामः अत्र धनुष् इति भवति धनुष् इति अहं चिन्तयामि अहं सम्यक् न जानामि अहं चिन्तयामि पुल्लिङ्गं वा स्त्रीलिङ्गं वा बहुवच किं भवति ऊहां कुर्वन्तु धनुः इति अस्तु पश्यामः धनुः एकनिमेष ओके न जानीमः चेत् पुल्लिङ्ग इति पश्यामः नास्ति धनुष् अस्तु एतदपि नास्ति नपुंसकलिङ्गम्
नपुंसकलिङ्गं
निश्चयेन भवति कुत्र अस्ति अहं दोषं कृतवती वा धनुष्
धनुष् शकारान्त
धनुष् एव किम् अभवत् न जानामि धनुष् इस् अ नपुंसकलिङ्गपदम्
धनु
धनुष् इस् अ नपुंसकलिङ्गपदम्
भगिनि इफ् यु जस्ट् सर्च् फार् धनुष् शब्द यु'ल् गेट् इट्
या अस्तु सो अत्र धनु इस् अ नपुंसकलिङ्गपदम् ओके सो अत्र संसाधनी यु हेव् टु डू इट् सो करेक्ट्लि अदर्वैस् इट् वोण्ट् गिव् यु
नो यु केन् जस्ट् लुक् इन् गूगल् ऐ हव् जस्ट् गाट् इट् आन् मै फोन् धनुः धनुषि धनुंषि
धनुः धनुषि धनुंषि ओ जस्ट् धनु वा भगिनि
धनु शब्द धनुष् शब्द धनुष् शब्द
धनुष् मीन्स् इट् इस् बो द बो बट् ऐ शुड् गेट् इट् हियर् टु अस्तु समयः अभवत् सो विल् कण्टिन्यू द नेक्स्ट् टैम् सो अत्र पश्यन्तु नपुंसक सो द हिण्ट् इस् ओन्लि इन् नपुंसकलिङ्ग यु विल् हेव् प्रथम द्वितीय समानरूपम् ओन्लि इन् सो अत्र धनुष् धनुः धनुषि धनुषि धनुः धनुषि धनुषि सो धनु धनुः इस् अ प्रथमा विभक्ति एस् वेल् एस् द्वितीया विभक्तिरूपम् धनुष् ऐ डोण्ट् नो वाट् इस् हेप्निङ्ग् वित् द sansadhani thing. So dhanush is the mula rupa, shakarantapa, dhanuhu. So dhanuhu is the ditya vibhakti rupa. So we can complete it. We stopped here. गृहपाठरूपेण कुर्वन्तु. अग्रिमवर्गे अग्रिमशुक्रवासरे वर्गः न भवति. ऐ एम् ट्रावेलिङ्ग्, सो अतः वर्गः न भवति. विल् सी यू इन् टू वीक्स्. ओके, इन् टू वीक्स्. अग्रिमशुक्रवासरे वर्गः न भवति. तदनन्तरं पश्यामः वयम्.
अस्तु भगिनि,
धन्यवादः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः.